अथ तृतीयः पादः प्राग्दिशो विभक्तिः किं सर्वनाम बहुभ्योऽद्व्यादिभ्यः इदम् इश एतेतौ रथोः एतदोन् सर्वस्य सोऽन्यतरस्यां दि पञ्चम्यास्तसिल तसेश्च पर्यभिभ्यां च सप्तम्यास्त्रल इदमोहः किमोत् वाहचच्छन्दसि इतराभ्योऽपि दृश्यन्ते सर्वैकान्यकीयत्तदः कालेदा इदमोर्हिल अधुना दानीञ्च तदोदाच तयोर्दार्हिलोचच्छन्दसि अनद्यतनेर्हिलन्यतरस्यां सद्यः परोत्परार्यैषमः परेद्यव्यद्यपूर्वेद्युः अन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युः अधरेद्युरुभयेद्युरुत्तरेद्युः प्रकारवचनेथाल् इदमस्थमुः किमश्च था हेतौ च छन्दसि दिक्शब्देभ्यः सप्तमी पञ्चमी प्रथमाभ्यो दिग्देशकालेष्वस्तातिः दक्षिणोत्तराभ्यामतसु च विभाषापरावराभ्याम् अञ्चेर्लुक उपर्युपरिष्टात् पश्चात् पश्चपश्चाचच्छन्दसि उत्तराधरदक्षिणादातिः येन बन्यतरस्यामदूरे पञ्चम्याः दक्षिणादाच आहि च दूरे उत्तराच्च पूर्वाधरावराणामसि पुरधवश्चैषाम् अस्ताति च विभाषावरस्य संख्याया विधार्थे धा अधिकरणविचाले च एकाद्धोऽध्यमुयन्यतरस्यां द्वित्र्योश्च धमुय एधाच्च याप्ये पाशप पूरणाद्भागेतीयादन् प्रागेकादशभ्यो छन्दसि षष्ठाष्टमाभ्याम्यच मानपश्वङ्गयोः कन्लुकौ च एकादाकिनिच्चासहाये भूतपूर्वे चरट षष्ठ्यारूप्य च अतिशायने तमभिष्ठनौ तिङश्च द्विवचनविभज्योपपदेतरबीयसुनौ अजादिगुणवचनादेव तुच्छन्दसि प्रशस्यस्य श्रः ज्य च वृद्धस्य च अन्तिकबाढयोर्नेदसाधौ युवाल्पयोः कनन्यतरस्यां विन्मतोर्लुक् प्रशंसायां रूपप ईषदसमाप्तौ कल्पब्देश्च देशीयरः विभाषासुपो बहुच्पुरस्तात्तु प्रकारवचने जातीयर् प्रागिवात्कः अव्ययसर्वनाम् नामकच्प्राक्तेः कस्यचदः अज्ञाते कुत्सिते संज्ञायाङ्कन् अनुकम्पायां नीतौ च तद्युक्तात् बह्वचो मनुष्यनाम् नष्ठज्वा घनिलचौ च प्राचामुपादेरडज्जुचौ च जातिनां नः कन् अजिनान्तस्योत्तरपदलोपश्च ठायादावूर्ध्वं द्वितीयादचः शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् अल्पे ह्रस्वे संज्ञायाङ्कन् कुटीशमीशुण्डाभ्योरः कुत्वाडुपच कासूगोणीभ्यांष्टरच वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे कियत्तदोर्निर्धारणे द्वयोरेकस्य डतरच वा बहूनाञ्जातिपरिप्रश्ने डतमच एकाच्च प्राचाम् अवक्षेपणेकन् इवे प्रतिकृतौ संज्ञायाञ्च लुम्मनुष्ये जीविकार्थे चापण्ये देवपथादिभ्यश्च वस्तेर्ढञ् शिलायाढः शाखादिभ्यो यः द्रव्यञ्च भव्ये कुशाग्राच्छः समासाच्च तद्विषयात् शर्करादिभ्योण् अङ्गुल्यादिभ्यष्ठक एकशालायाष्ठजन्यतरस्याम् कर्कलोहितादीकक प्रत्नपूर्वविश्वे मात्थाल्छन्दसि पूगाञ्योग्रामणी पूर्वात् व्रातच्छ्मयोरस्त्रियाम् आयुधजीविसङ्घाञ्यड्वाहीकेष्वब्राह्मणराजन्यात् वृकाट्येण्यन् दामन्यादित्रिगर्तषष्ठाश्छः पर्ष्वादियौधेयादिभ्यो णयौ अभिजिद्विदभृच्छालावच्छिकावच्छमीव दूर्णावच्छ्रुमदणोयञ् न्यादयस्तद्राजाः प्राग्दिशो नद्यतने विभाषाज्य च जातिनाम्नो वस्तेरेकोनविंशतिः इति तृतीयः पादः।